यो राजिपोरिन्दमोयोद्युम्नैर्द्युम्नवत्तमः सोमस्युदस्त इन्द्रतेश्च स्वधापते मदाः यः शग्भस्तु विलग्मदे राजो दामावादीनाम् सोमस्युदस्त इन्द्रतेश्च स्वधापते मदाः येन वृद्धो न समदातुरो न स्वाभिरुचिभिः सोमस्तुतस्त इन्द्रतेस्तिस्वधापते मदाः यमो वो अप्राघनम् गणेशे सव सस्पतिम् इन्द्रम् विश्वासाहम् नरम् मङ्गष्टम् विश्वदर्शनिम् यम् वर्धयन्तीर्गिरःपतिम् तुरस्य राधसः तमिन्वस्य रोदसी देवी सुष्टम् सपर्यतः तद्वामुक्तस्य बर्हणेन्द्रायो वस्त्रणेषणि इपो नयस्योदयोऽपि यद्रोहन्ति सक्षिताः अपि तद्दक्षम् मित्रो निवीयान्त्वमानो देवेभ्यो वस्यो अचैत् सदास्थौलाभिर्धौतरीभिर्विश्यापाजिरभवत्सखिभ्यः तस्य परिभेदा पाय श्रीयेमनांसि देवासो अक्रन् रो नाम महोवचोभिर्वपुर्दृशयेभेन्यो व्यावः युमत्तमम् दक्षम् देह्यस्मे देहाजनानाम् पूर्वीररादीः पर्वीयो वयकृणयसचेभिर्धनस्य सातामस्माविड्ढि इन्द्रदुभ्यमिन्नाघमन्न भूम वयम् धात्रे हरिभोमा विवेनः न कैराभिर्दृदेवत्यत्रा किमङ्करध्वजोदानम् त्वाहुः माजस्वानेवृणभनोरीधामातेरेवतः सख्येरीषाम पूर्वेष्ट इन्द्रनिष्ठिधोजरेरुजह्यदृष्वेन्द्रमृहावृणतः उदभ्राणीदस्तनयन्नियत्तेन्द्रो राधांस्यश्यानिगव्याः त्वमाजि प्रतिवः कारुधायामा त्वादामानादभन्मघोनाः अध्वर्यो वीरप्रमहे सुदा रामिन्द्राय भरसह्यस्य राजा यः पूर्व्याभिरुतनूतनाभिर्गेर्भिर्वावृधे गृह्णता मृषीणाम् अस्य मदे पुरुवर्पांसि विद्वानिन्द्रो वृत्राण्यप्रतीजघान तमप्रहोषिमधूमन्तमस्मै सोमम् वीराय शिप्रणेऽपि मध्यै पादासुतमिन्द्रो अस्तु सोमम् हन्ता वृत्रम् वज्रेण मन्दसा नः गन्ता यज्ञम् परावदश्चिदच्छावशुद्धीनामाविता कारुधायाः इदम् जगत्पात्रमिन्द्रपादमिन्द्रस्य प्रियममृतमपायि मत्सत्यथासौ मनसा च देवम् या अस्मद्वेषो युजवद्यम् वा एनामन्दानो जगिशूरसत्रोञ्चामिमजामिमघभवन्नमित्रान् अभिरेणाभ्या आदेदीसानाम् परा जयिन्द्रप्रवेणा जगि च आदृष्ट्वा रोमघवन्निन्द्रभृत्स्वा अस्मभ्यम् महिमरेव सुगङ्गाः अपाम् तोकस्य तनायस्य जेष इन्द्रसूरीन्द्रेणगिष्मानो अर्धम् आत्माहदायो वृषाणो युजानावृषारथासो वृषारत्मजोत्याः अस्मत्रान्तो वृषाणो वज्रवाहो विष्णेमदाय सुयुजो वहन्तु आदे वृषन्वृषाणो द्रोणमस्तर्घृतपृषो नोर्मजो मदन्तः इन्द्रप्रदभ्यम् वृषभिस्तुतानाम् वृष्णे भरन्ति वृषभाय सोमम् वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनाम् वृषभस्त्यानाम् वृष्णे रयन्तर्वृषभपीवाय स्वादूरसो मधुपे योतराय अयम् देवस्य साजायमान इन्द्रेण युजा परिमस्तभायते अयम् स्वस्य पितुराजुधानीन्दूरमुष्णादसीवस्य मायाः अयमागृणो दुषसः सुपत्नीरयम् सूर्ये अदधा ज्योतिरन्तः अजम् त्रिधातु दिविरोचनेषु त्रिदेषु विन्ददमृतम् निगूढम् अयम् द्यावा पृथिवी विष्कभाजदयम् रथमयमत्सप्तरश्म्यम् अयम् गोषुसच्चा पक्वमन्तः सोमो दाधारदसा इन्द्रमुत्सम्।